एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाले गतदिने अतिरिक्तेषु पञ्चसहस्रेषु सप्तशते त्रिषष्ट्यांच जनेषु कोरोना विषाणोः संक्रमणम् पुष्टीभूतम् वर्तते। नेपाले ह्यस्तनावधि कोरोना विषाणुना संक्रान्तानाम् जनानाम् संख्या लक्षत्रयम् अष्टाविंशतिः सहस्राणि त्रिनवत्यधिकाष्टशतञ्च प्राप्ता वर्तते। मन्त्रालयस्य तथ्यांकानाम् अनुसारेण गतदिने विंशतितः ऊनचत्वारिंशद् वर्षाणाम् वयःसमूहस्य सर्वाधिकाः सहस्रद्वयम् सप्ताशीत्यधिक सप्तशतञ्च जना संक्रान्ताः सन्ति। एवञ्च अप्राप्तोनविंशति वर्षेषु षट्त्रिंशदधिक शतचतुष्टय जनेषु संक्रमणम् पुष्टीभूतमस्ति। कोरोना संक्रमणस्य कारणेन ह्य अतिरिक्ताः ऊनविंशतिर्जनाः मृताः। अनेन सह नेपाले संक्रमणस्य पश्चात् मृतानाम् जनानाम् संख्या सहस्रत्रयम् अष्टनवत्यधिक शतद्वयम् च प्राप्तास्ति। ह्य सहस्रम् सप्ताशीत्यधिक शतद्वयम् च जना कोरोना संक्रमणात् मुक्ताः सन्ति। ह्यस्तनावधि संक्रमणात् मुक्तानाम् जनानाम् अंकमानः प्रतिशतम् 10.9%। सम्प्रति आराष्ट्रम् 43,000 त्रयोदशाधिक 200 च सक्रिय संक्रान्ताः जनाः सन्ति। एतेषु एकोत्तर चतुःशतस्य सघनोपचार कक्षेषु 10% च जनानाम् कृत्रिम श्वास प्रश्वासोपकरणेषु उपचारः विद्यमानोस्तीति स्वास्थ्य मन्त्रालयो ज्ञापयति। स्वास्थ्य जनसंख्या मन्त्री हृदय त्रिपाठी निगदति कोविड ऊनविंशत्या संक्रान्तानाम् जनानाम् उपचारे सर्वकारः दायित्वपूर्णतया कर्तव्य पालनायम् अग्रेवर्धितो वर्तते। ह्य श्रव्यदृश्य सन्देशम् प्रकाश्य मन्त्री त्रिपाठी संक्रान्तानाम् जनानाम् उपचारस्य सकल दायित्वम् सर्वकारेण अंगीकृतम् अस्तीति व्याहरन् संक्रमणात् विचलिततायाः अवस्था नास्तीति अज्ञापयत्। मन्त्री त्रिपाठी अवोचत् संक्रान्तानाम् जनानाम् उपचाराय काष्ठमण्डपोपत्यकायाम् सहस्रशय्यानाम् व्यवस्था विहिता वर्तते। प्रमुख प्रतिपक्षिणा नेपाली कांग्रेस दलेन संकटस्य समये नागरिकेभ्य हताशानुभवनस्य स्थितिम् निवार्य समाश्वासनम् सर्वकारस्य कर्तव्यम् भवति इति ज्ञापितम् वर्तते। दल प्रवक्त्रा विश्वप्रकाश शर्मणा ह्य विज्ञप्तिम् प्रकाश्य चिकित्सालयेषु शय्यानाम् उपलब्धतायाः असमर्थावस्था वर्तते इति सार्वजनिक वक्तव्येन सर्वकारस्य अकर्मण्यता एव न दायित्वविहीन प्रवृत्तिश्चास्ति इति पुष्टीभूतमिति उक्तम् वर्तते। नेपाली कांग्रेस दलेन युद्धस्तरे कार्यम् विधातुम् कोरोना विरुद्ध दस्य संघर्षे राज्यस्य क्षमताम् विस्तारयितुम् च सर्वकारः अनुरुद्धोऽस्ति। नेकपा एमाले दलस्य वरिष्ठ नेतरी झरनाथ खनाले कोविड ऊनविंशते संक्रमणम् पुष्टीभूतम् वर्तते। पीसीआर परीक्षणेन वरिष्ठ नेतरी खनाले संक्रमणम् पुष्टीभूतमिति एतदीय स्वकीय सचिव कृष्ण भट्टराय अज्ञापयत। खनाला सम्प्रति काष्ठमण्डपस्थम् थापथलीवर्तिनम् नर्विक अन्तर्राष्ट्रिय चिकित्सालयम् प्रवेशितो वर्तते। खनालस्य सम्प्रति प्राणवायोः सामान्य सहयोगेन उपचारः विधीयमानोऽस्तीति चिकित्सालयस्य सूचना सम्पर्क प्रमुख सोमनाथ वास्तुला अज्ञापयत्। कोरोना महामार्याः द्वितीय लहर्या तीव्रम् प्रसरणमनु वीरगंजस्थाने संक्रान्तानाम् जनानाम् उपचाराय शय्यानाम् प्राणवायोश्च अभावः सृष्टो वर्तते। संक्रमणस्य नियन्त्रणाय भारतेन सह सम्पृक्त सीमे वीरगंजस्थाने निषेधाज्ञा क्रियान्विता वर्तते। महानगरपालिकया भारतात् आगतानाम् जनानाम् कृते पश्चात्तन्याः चतुर्विंशते घण्टानाम् पीसीआर विधेः परीक्षणस्य प्रपत्रम् अनिवार्यम् विहितम्। प्रपत्ररहितानाम् जनानाम् कृते सीमा प्रवेशबिन्दौ एव कोरोना परीक्षणस्य व्यवस्था च विहितास्ति इति अस्माकम् वीरगंजवर्ती संवाददाता ध्रुव भट्ट अधिकारी ज्ञापयति। पर्सा जनपदस्य गण्डकवर्तिना वीरगंज हेल्थ केयर हस्पिटल नाम्ना चिकित्सालयेन ह्य कोरोना संक्रान्तानाम् जनानाम् कृते 10 कृत्रिम श्वास प्रश्वासोपकरणैः 25 शय्यानाम् सघनोपचार कक्ष स्थापितो वर्तते। कोरोना संक्रान्तानाम् जनानाम् संख्यायाः सततम् वर्धनमनु 25 शय्यानाम् सघनोपचार कक्षम् संस्थाप्य उपचारः प्रारब्ध इति वीरगंज हेल्थ केयर चिकित्सालयस्य संचालकः अबुल हैस अन्सारी अज्ञापयत्। नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देवाविदेन राष्ट्रिय सभायाः पूर्व सदस्यस्य नेपाल संस्कृत विश्वविद्यालयस्य पूर्व कुलपतेश्च प्राध्यापकस्य विदुर पौडेलस्य निधनम् प्रति दुःखम् व्यक्तम् वर्तते। सभापतिना देवाविदेन ह्य शोक विज्ञप्तिम् प्रकाश्य प्राध्यापकस्य पौडेलस्य निधनेन आत्मना दुःखमनुभूतमिति उल्लिखता तस्य आत्मनः चिरशान्ते कामना शोक सन्तप्त परिवारजनेषु समवेदना च व्यक्तिस्तः। सभापति देवः अगदत् प्राध्यापकस्य पौडेलस्य निधनेन नेपाली कांग्रेस दलेन राष्ट्रेण च एकः कुशलः नेता बौद्धिक व्यक्तिश्च हापितास्ति। एवमेव नेपाली कांग्रेस संसदीय दलस्य प्रमुख सचेतकेन बालकृष्ण खाँड इत्यनेन च शोक सन्देशस्य माध्यमेन पौडेलस्य निधनम् प्रति दुःखम् व्यक्तवता शोकसन्तप्त परिवारजनान् प्रति समवेदना प्रकटिता वर्तते। प्राध्यापक पौडेल ह्य काष्ठमण्डपे दिवंगत आसीत्। अमेरिका देशेन अमेरिकीय विकास सहयोग नियोगस्य माध्यमेन कोरोना महामार्या विरूद्धे योद्धुम् नेपाल सर्वकाराय 85 लक्षाणां डलर मुद्रायाः आर्थिक सहयोगं प्रदातुम् उद्घुष्टं वर्तते। एकाब्जस्य नेपाली रूप्यकाणाम् एतेन सहयोगेन नेपाल सर्वकारस्य कोविड 19 परीक्षणं सम्पर्क व्यक्त्यनुसन्धानं संक्रमणस्य निरोधन नियन्त्रणोपचाराश्चेति प्रयासेष् अतिरिक्त सहयोग प्राप्स्यते इति अमेरिकीय राजदूतावासेन ह्य प्रकाशितायं विज्ञप्तौ उल्लिखितमस्ति। इतर जनपदेभ्य जुम्ला जनपदं प्रविवीक्षुभिः नागरिकैः अनिवार्य रूपेण स्वास्थ्य परीक्षणं विधातव्यं वर्तते। जनपद विपद व्यवस्थापन समितेः ह्यस्तनोपवेशेन इतर जनपदेभ्य जुम्ला जनपदं प्रविवीक्षुभिः सर्वैः जनैः स्वास्थ्य अपरीक्षणं यावत् ग्रामाः प्रवेष्टुं न शक्यन्ते इति निर्णीतमिति सहायक प्रमुख जनपदाधिकारी नन्दराम चौलागाई अज्ञापयत्। सुनसरी जनपदस्य गढ़ ग्राम पालिकायाः द्वितीय वडा क्षेत्रस्य औरावनी स्थाने ह्य वज्रपातेन एको जना मृतोस्ति। क्षेत्रे गमन समय वज्रपातेन स्थानीय 60 वर्षीय रघुनाथ यादव मृत इति सुनसरी जनपद प्रहरी कार्यालय ज्ञापयति। मकवानपुरस्य हेटौड उपमहानगरपालिकायाः नवमवडा क्षेत्रे ह्य यान दुर्घटनायां एक मृतः अन्य एको जना आतश्च वर्तेते। पूर्व पश्चिम राजमार्गस्य अन्तर्गतं हेटौड उपमहानगरपालिकायाः नवमवडा क्षेत्रस्य पशुपतिनगरे मोटर साइकल यान कारयानयोः परस्परं संघटितयोः सतोः दुरापन्नायां दुर्घटनायां मोटर साइकल यान चालकः 12 जनपदस्य महागढ़ीमाई नगरपालिकायाः चतुर्थ वडा क्षेत्रस्य 35 वर्षीय संजय कुमार शुक्ला मृत इति प्रहरिणा ज्ञापितमस्ति इति समाचारः।